Om Sivaya Namah. Dear listeners of Shaivam.org, the next program is Purana Parayanam. In this, you are about to listen Skanda Mahapuranam. The title is Maheshwara Kandam, Part 3, Purvardham. Thank you. Om Sivaya Namah.
Devairaseshairdaityadina Jetukamaisamudhyataihi Prartitas sarvato bhishta varado aruna bhudaraha kshatra virachita kara adityasteja satapan grahanatastu shonadrim vilangayitu mudhyataha ratavaha punastasya shaktihinashramam gataha sopi shriya vihinascha jatas shonadritejasa Nāśaknoścadivam gantum sarvagatyāṁśu mālinah satu brahmopadeśena samārādhya arunāchalam prītyā tasmādvibhor lebe margam vyom nohayāṁchubhān tatah prabhruti digmāṁśuhu sahishonākhya parvatam nalangayati kim tvasya pradakṣina parikramaihi Dakshayagaparidvasta, Hinangastridashapura, Arunachalam Aradhyan, Avanyangani Lebire, Pushadantam Siki Hastam, Bagonetram Tvakhanditam, Granam Vani Chale Besa, Sonachalani Shevanath, Bhargavakshina Netraha, Savishnuhastakushagrataha Balidattavanidhana Jaladara nirodhataha Satu shonachalam gatva Tapahkritvati dushkaram Lebe netram chaputatma Vaskarakhye giraustitaha Arunachalanatasya Sevaya surya saratihi Pratardhanakhyo nrapatihi grahitum devakanyakam aruna adripater ghanam kurvantim sadaro bhavat kshanat kapimukho jato mantribischodito nrapaha pratyarpyatam punascha anyaha pradhat aruna bhubhrute tatascharumukho jataha Prasadat Aruneshituhu Sayujyamasmai Sakalam Dattavan Bhakti Bhavataha Arunachalanatasya Sannidonyana Durbalaha Gandharvah Pushpakakhyastu Bhaktihinohya Gatpura Tato Vyagramukam Drishtva Gandharva Paricharakaha Kimethaditi Saascharyam Paprachukte parasparam Athanarada nirdishtam Avajnapalam atmanaha Budvarunadrim sampujya Punascha sumukho bhavat Sivabhumiriyam khyata Parito yojanadvayam Muktistatra pramitanam Kadapi vilayonahi Saptarishayaha purabhumau Shapadosha samanvitaha Sishe vire arunadrimvai Nato jnatva vinischayam Shapamoksham dado shriman Saptarshinam mahatmanam Saptarshibihi krutam thirtam Sarvapapa vinashanam Shonachalasya nikathe Drasyate pavanam subam Pangur munishona shailat Padau labdum samagataha Antarhita prarthitharto Dharuhasta putevahan Janu chankraman avyagraha Shona nadhyasta tamgataha Dharuhasta pute tirtam Nichikshepa pipasataha Janu chankramane tasmin Durtastoyam pipasati Ata shona chalam praptaha Katamba dharuhastakaha Kime thaditi tam pruchan Nadavatkali tatparaha Labdapadascha sahasa Jagamachani jalayam Nadrakshit purusham tatra दारुहस्तौ पुरोगमौ स्वयं गृहीत्वा च आलोक्य ववन्दे अरुणपर्वतम् ननन्दलब्धचरणो लब्धरूपो महामुनिः विस्मयोत्फुल्लनयनैः शिवभक्तैर्महात्मभिः पूजितो लब्धपादः सन् जगामचयतागतम् वालीसकसुतः श्रीमान् शृङ्गादुदय भूभृतः अस्ताचलस्य शिखरम् प्रतिगन्तुम् समुद्यतः आलुलोके अरुणगिरिम् मध्ये देव नमस्कृतम् ऊर्ध्वम् गन्तुम् समुद्युक्तः क्षीणवीर्योपतद्भुवि पित्रा शक्रेण सङ्गम्य चोदितः सोन पर्वतम् लिङ्गम् तैजसम् अभ्यर्च्य लब्धवीर्योऽभवत् पुनः नलः पूर्वम् समभ्यर्च्य स्वसृष्टा मानवप्रियाः पालयामास धर्मात्मा नीतिसारसमन्वितः इलः प्रविश्य सहसा गौरीवनमखण्डितम् स्त्रीभावम् समनुप्राप्तः पप्रच्छस्वम् पुरोधसम् वसिष्ठेन समादिष्टः सोनाद्रिम् समपूजयत् तपस आराध्य देवेशम् पुनः पुंस्त्वम् उपागतः सोमोपदेशात् भक्त्याथ सस्मार अरुणपर्वतम् ईशानुग्रहतो लेभे शापमोक्षम् तपोधिकः लेभे च परमम् स्थानम् अप्राप्यम् अमरैरपि भरतो मृगशावस्य स्मरणात् आयुषोत्यये न मुक्तिम् प्राप योगेन मृगजन्मनि सङ्गतः पत्नीविरहजम् दुःखम् प्राप्तवानमितम् हरिः पुनर्भृगूपदेशेन सोनाद्रिम् इममर्चयन् अवतारेषु सर्वेषु सर्वदुःखान्यपाकरोत् सरस्वती च सावित्री श्रीभूमिः सरितस्तता अभ्यर्च्य सोनशैलेशम् आपदो निरतारिषुः भास्करः पूर्वदिग्भागे विश्वामित्रस्तु दक्षिणे पश्चिमे वरुणो भागे त्रिशूलम् च उत्तराश्रयम् योजनद्वयपर्यन्ते सीमाशैलेषु संस्थिताः चतस्रो देवतास्त्वेताः सेवन्ते सोनपर्वतम् स्थिताः सीमावसानेषु सोनाद्रीशम् अवस्थितम् नमन्ति देवाश्चत्वारः शिवम् सोनाचलाकृतिम् अस्य उत्तरस्मिन् शिखरे दृश्यते वटभूरुहः सिद्धवेषः सदैवास्ते यस्य मूले महेश्वरः यस्य छायाति महती सर्वदा मण्डलाकृतिः लक्ष्यते विस्मयोपेतैः सर्वदा देवमानवैः अष्टभिः परितो लिङ्गैः अष्टदिक्पालपूजितैः अष्टासु संस्थितैर्भिक्षु शोभते हि उपसेवितः नृपानाम् शम्भुभक्तानाम् शङ्कराज्ञानुपालिनाम् अत्रैव महदास्थानम् आदिदेवेन निर्मितम् बगुलश्च महांस्तत्र सदार्तितफलप्रदः आगमार्तविदा मूले वामदेवेन सेव्यते अगस्त्यश्च वसिष्ठश्च सम्पूज्य अरुणभूधरम् संस्थाप्य लिङ्गे विमले ते पाते तादृशम् तपः हिरण्यगर्भतनयः पुरा सोननदः पुमान् अत्र तीव्रम् तपस्तप्त्वा गङ्गाभिमुखगो भवत् अत्र सोननदी पुण्या प्रवहत्यमलोधका वेणा च पुण्यतटिनी हरितः सेवते चलम् वायव्याश्च दिशो भागे वायुतीर्थम् च शोभते तत्र स्नात्वा मरुत्पूर्वम् जगत्प्राणत्वम् आप्तवान्। उत्तरेऽस्य गिरेस्तीर्थम् सुवर्णकमलोज्ज्वलम् दिव्यसौगन्धिकाकीर्णम् हंसभृङ्गमनोहरम्। कौबेरम् तीर्थम् ऐशान्यम् ऐशान्यम् तीर्थम् उत्तमम्। तस्यैव पश्चिमे भागे विष्णुः कमललोचनः स्नात्वा विष्णुत्वमभजत् कमलालालिताकृतिः। नवग्रहाः पुरा तत्र स्नात्वा ग्रहपदम् गताः। नवग्रहप्रसादश्च जायते तत्र मज्जताम्। दुर्गा विनायकस्कन्दौ क्षेत्रपालः सरस्वती रक्षन्ति परितस्तीर्थम् ब्राह्यमेतत् अनन्तरम्। गङ्गा च यमुना चैव गोदावरी सरस्वती नर्मदा सिन्धु कावेर्यः शोणः शोण नदी च सा। एता गूढानि शेवन्ते पूर्वाध्यासासु सन्ततम्। नश्यन्त्यः सकलम् पापम् आत्मक्षेत्रसमुद्भवम्। अन्याश्च सरितो दिव्याः पार्थिव्यश्च सुबोधकाः। उदजृम्भन्त सहसा सोनाद्रीसप्रसादतः। अगस्त्यम् दक्षिणे भागे तीर्थम् महत् उदाहृतम्। सर्वभाषार्थ संसिद्धिः जायते तत्र मज्जताम्। अत्र अगस्त्यः समागत्य स्नात्वा मुनिगणावृतः। अभ्यर्च्यति सोनाद्रिम् मासि भाद्रपदे सदा। वसिष्ठम् उत्तरे भागे तीर्थम् दिव्यम् सुबोधयम्। सर्ववेदार्थ संसिद्धिः जायते तत्र मज्जनात्। अत्र मेरोः समागत्य वसिष्ठो भगवान् ऋषिः। करोत्यास्वयुजे मासि सोनाद्रीसनिषेवनम्। गङ्गा नाम महत्तीर्थम् पूर्वोत्तरदिशि स्थितम्। तत्र स्नानाद्भवेन्नृणाम् सर्वपातकनाशनम्। गङ्गाद्याः सरितः सर्वाः कार्तिके मासि सङ्गताः। अत्र अरुणाद्रिनाथस्य सेवाम् कुर्वन्ति सादरम्। ब्राह्म्यम् नाम महातीर्थम् अरुणाद्रीशसन्निधौ। तस्योपसङ्गमात् सद्यो ब्रह्महत्यादि नश्यति। मार्गे मासि समागत्य ब्रह्मलोकात् पितामहः। स्नात्वा तत्प्रत्यहम् देवम् अर्चयत् अरुणाचलम्। पौषे मासि समागत्य स्नात्वा तीर्थे निजैस्वरैः। महेन्द्रः सोनशैलेशम् अभ्यर्चयति शङ्करम्। शैवम् नाम महातीर्थम् सन्निधौ तत्र वर्तते। रुद्रो ब्रह्मकपालेन सह तत्र न्यमज्जत। अत्र शम्भुर्गणैः सार्धम् मागे मासि प्रसीदति। प्रायश्चित्तानि सर्वाणि नृणाम् सपलयन् भुवि। आग्नेयम् अग्निदिग्भागे तीर्थम् सौभाग्यदायकम्। अग्निरत्र पुरा स्नात्वा स्वाहया सङ्गतः सुखी। अनङ्गोऽपि स्मर स्नात्वा फाल्गुणे मासि सङ्गतः। अभ्यर्च्य शोनशैलेशम् अभूत् सर्वसुखाधिपः। दिशि दक्षिणपूर्वस्याम् वैष्णवम् तीर्थमद्भुतम्। ब्रह्मर्षयः सदा तत्र वसन्ति कृतकौतुकाः। चैत्रे मासि समागत्य विष्णुस्तत्र रमापतिः। स्नात्वा अभ्यर्च्य अरुणाद्रीशम् अभवल्लोकनायकः। सौरम् नाम महातीर्थम् कौबेरदिशि जृम्बितम्। सर्वरोगोपशान्तिश्च जायते तत्र मज्जनात्। वैशाखे मासि दिनकृत् स्नात्वात्रेशम् निशेषते। बालकिल्यः समम् श्रीमान् वेदैश्च सह सङ्गतः। आश्विनम् पावनम् तीर्थम् ईश ब्रह्मोत्तरे स्थितम् आप्लुतौ विषजौ तस्रौ पूजावत्र निमज्जनात्। अत्र अश्विनौ समागत्य स्नात्वा अभ्यर्थ्य च शङ्करम् दक्षिणे सोनशैलस्य निकटे वर्तते शुभम् कामदम् मोक्षदम् चैव तीर्थम् पाण्डवसञ्चितम् पुरा हि पाण्डवास्तत्र मज्जनात्क्षितिनायकाः। अत्र धात्री समागत्य सर्वौषधिफलान्विता ज्येष्ठे मासि समम् देवैः अर्चयच्च अरुणाचलम्। आषाढे मासि सन्त्यक्ता विश्वे देवा महाबलाः अभ्यर्च्य सोनशैलेशम् आगच्छन्मकराध्यताम्। वैश्वदेवम् महातीर्थम् सोमसूर्योत्तराश्रयम् विश्वाधिपत्यमतुलम् लभ्यते तत्र मज्जनात्। परितो लक्ष्यते तीर्थम् पूर्वस्याम् दिशि शोभने अत्र लक्ष्मीः पुरा स्नात्वा लेबे पुरुषम् उत्तमम्। उत्तरस्याम् दिशि पुरा पुण्या स्कन्दनदी स्थिता अत्र स्नात्वा पुरा स्कन्दः सम्प्राप्तो विपुलम् बलम्। पश्चिमस्याम् दिशि ख्याता परा कुम्भनदी शुभा अगस्त्यः कुम्भकः कुम्भः तत्र नित्यम् व्यवस्थितः। गङ्गा च मूलभागस्था यमुना गगने स्थिता सोमोद्भवा शिरोभागे सेवन्ते सोनपर्वतम्। बहून्यपि च तीर्थानि सम्भूतानि समन्ततः तेषाम् भेदान् पुरा वेत्तुम् मार्कण्डेयस्तु नाशकत्। तपोभिर्बहुभिः सोऽयम् सोनाद्री समतोषयत्। प्रार्थयामास च वरम् प्रीतात्तस्मान्मुनीश्वरः। मार्कण्डेय उवाच भगवन् अरुणाद्रीश तीर्थभेदाः सहस्रशः प्रख्याताश्च प्रकाशन्ते दुर्बोधास्त्वल्पचेतसाम्। कथमेकत्र सान्निध्यम् लभेरन्भुवि मानवाः अपर्याप्तश्च भवति पृथगेषाम् निषेवने। अन्तर्निगूढतेजाः त्वम् गत्वा यः सकलैः सुरैः आराध्यसे कुरु तथा सोनाद्रिस्पर्शभीरुभिः। अहम् च शम्भुम् अभ्यर्च्य तपसा अरुणपर्वतम् सर्वलोकोपकारार्थम् सूक्ष्मलिङ्गमपूजयम्। विश्वकर्म कृतम् दिव्यम् विमानम् विविधोत्सवम् सङ्कल्प्य सकलान् भोगान् नित्यान् जनयत् पुनः। धर्मशास्त्राणि विविधान् यवापुरमुनिपुङ्गवाः शिवकार्याणि सर्वाणि चक्रुर्भक्तिसमन्विताः। मया च शम्भुमभ्यर्च्य कृताज्ञाहुतिसम्भवाः। सप्तकन्यावरारोहाः पूजार्थम् विनियोजिताः। हतशत्रुगणैर्भूपैः लब्धराज्यैः पुरा नृपैः प्रत्येकम् विविधैर्भोगैः सोनशैल अधिपूर्छितः। इदमनुभव वैभवम् विचित्रम् दुरितहरम् शिवलिङ्गम् अद्रिरूपम् अमलम् अनभिगम्य नामधेयम् वरम् अरुणाद्रिनायकम् भजस्व। अवनतजनरक्षणोचितस्य स्मरणनिराकृतविश्वकल्मषस्य भजनममितपुण्यराशियोगात् अरुणगिरेः कृतिनः परम् लभस्व। इति षष्ठोऽध्यायः। ओम् तत्सत्। तिरुचित्रम्बलम् अरुणाचलम्।